इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। असमराज्ये विधानसभा निर्वाचनस्य प्रचारः तीव्रः अभवत्। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्रमोदी गोगामुख नगरे जनसभां सम्बोधयन् उक्तवान् यत् निर्धनानां मध्यमवर्गस्य च कल्याणं दलस्य सर्वोच्च प्राथमिकता अस्ति। सर्वकारेण आश्वासितं यत् सम्पूर्णे देशे सर्वाणि सस्य बीजानि पर्याप्तमात्रायाम् उपलभ्यन्ते। राज्यसभायां केन्द्रीय सशस्त्र आरक्षक बल विधेयकः स्वीकृतः। वस्तुसेवाकर संग्रहः 8.8% यावत् वृद्धिं प्राप्य मार्चमासे 2,00,000 कोटिरूप्यकाणि अतिक्रमितः। 26,000,000 वित्तीयवर्षे 3.8% यावत् वृद्धिमवाप्नोत्। अपि च एशियन बॉक्सिंग चैंपियनशिप क्रीडायां भारतस्य सचिन सिवाचः विश्वनाथ सुरेशः च प्रागुपान्त्य चक्रीय द्वन्द्वे प्रविष्टवन्तौ। अथ वार्ताः विस्तरेण। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्रमोदी अद्य अवदत् यत् निर्धनानां मध्यमवर्गस्य च कल्याणमेव दलस्य सर्वोच्च प्राथमिकता अस्ति। असमराज्यस्य गोगामुखनगरे निर्वाचन समारोहं सम्बोधयन् प्रधानमन्त्री अवदत् यत् सर्वसमावेशक विकासाय भाजपेति दलम् अवसंरचनाक्षेत्रे शिक्षायां स्वास्थ्यसेवायां च निरन्तरम् अवधानं प्रदत्तवान्।
असम ने सेवा और सुशासन का नया दौर देखा है। असम का ये चुनाव विकसित असम से विकसित भारत बनाने का चुनाव है। इस बार बीजेपी एनडीए सरकार की हैट्रिक लगनी तय है।
श्री मोदी अवदत् यत् असमराज्ये एनडीए शासनस्य गत 10 वर्षेषु राज्ये महति प्रगतिः अभवत्। सः अग्रे अवदत् यत् डबल इंजन सर्वकारः राज्ये चिरस्थायि शान्तिम् आनेतुं साहाय्यं कृतवान्। बहवः युवकाः हिंसातः अधिक सुरक्षितं भविष्यं प्रति गच्छन्तः सन्ति। असमराज्यं चायेत्यस्य कृते जगति प्रसिद्धमस्ति इति प्रधानमन्त्री अवदत्। अपि च मोरीगांवनगरे आगामिनः सेमीकण्डक्टर प्लांट इत्यनेन सह राज्यं शीघ्रमेव सेमीकण्डक्टर चिप्स इत्यस्य कृते ज्ञायते।
एक समय था जब दुनिया में असम की चर्चा चाय के लिए होती थी। असम यानी चाय, दुनिया भर में असम की चाय की सुवास थी। अब असम को दुनिया चाय के साथ साथ चिप से भी पहचानेगी। वो दिन दूर नहीं जब असम के सेमीकंडक्टर प्लांट से चिप का उत्पादन शुरू हो जाएगा। ये असम को आधुनिक टेक्नोलॉजी के एक बहुत बड़े हब के रूप में विकसित करेगा।
नवदिल्ल्यां पश्चिमेशिया संघर्षस्य प्रभावानां समीक्षां कुर्वन् भारत सर्वकारेण अद्य सुदृढाश्वासनं प्रदत्तम्। कृषिमन्त्रालयस्य अवर सचिव डॉ मनिन्दर कौर द्विवेदी अद्य उक्तवती यत् देशे सर्वेषां सस्यानां बीजानि पर्याप्तरूपेण उपलब्धानि सन्ति। तया सूचितं यत् 85,100,000 क्विंटल परिमितानि खरीफ सस्य बीजानि तथा च खरीफ ऋतौ आवश्यकस्य उर्वरकस्य भागः ओपनिंग स्टॉक इति रूपेण संचितः अस्ति। उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः अद्य अवदत् यत् संविधान सदनस्य 58 भित्तिचित्राणि केवलं कलाकृतयः न सन्ति, तानि भारतस्य सभ्यतायात्रां प्रदर्शयन्ति। श्री राधाकृष्णनवर्यः नवदेहलीनगरे राज्यसभायाः सदस्या सुधामूर्तिना लिखितस्य पुस्तकस्य टाइड्स ऑफ टाइम इत्यस्य विमोचनं कुर्वन् एतत् उक्तवान्। राधाकृष्णनवर्यः अवदत् यत् लोकतन्त्रं प्रायः आधुनिकव्यवस्थारूपेण दृश्यते यत् पश्चिमदेशात् आगतम्। सः अवदत् यत् भारतस्य प्राचीनाः ग्रन्थाः स्पष्टतया साक्ष्यं ददति यत् देशे लोकतन्त्रस्य परिकल्पना नूतना नास्ति। अद्यतन नूतन वित्तीय वर्षात् देशे अनेके महत्वपूर्णाः आर्थिक परिष्काराः प्रवृत्ताः। 6 दशकेभ्यः पुरातनस्य आयकर अधिनियमस्य स्थाने अद्यतनः 25,000,000,000 वर्षस्य नूतन आयकर अधिनियमः प्रवृत्तो जातः। अस्य मुख्योद्देश्यं करप्रणाल्याः सरलीकरणं, पुरातननियमानां निष्कासनं तथा च करदातृणां कृते अनुपालनं सुगमं करणीयमस्ति। भारतीय रिजर्व बैंक इत्यस्य निर्देशानुसारम् अद्य आरभ्य सर्वेभ्यः डिजिटल व्यवहारेभ्यः द्विस्तरीय प्रमाणीकरणम् अनिवार्यं भविष्यति। अपि च फास्टैग वार्षिक शुल्कस्य नूतनाः नियमाः तथा च पैन कार्ड निर्माणस्य अद्यतनीकरणस्य च परिष्कृताः नियमाः अपि अद्य आरभ्य कार्यान्वितम् अभवन्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिमेशिया संघर्षस्य प्रभावेण तैल विपणिभिः वाणिज्यिक एलपीजी मूल्ये 15.1 शतरूप्यतोप्यधिकरूप्यकाणां वृद्धिः कृता। मन्त्रालयस्य सूचनानुसारं नवदेहल्याम् 11 किलोग्राम परिमितस्य वाणिज्यिक कोषस्य मूल्यम् अधुना 8.2 शताधिक 2,000 रूप्यकाणि अभवत्। एवमेव कोलकाता नगरे 8.2 शतोत्तर 2,000 रूप्यकाणि, मुम्बई नगरे 31.2 शतरूप्यकाणि तथा च चेन्नई नगरे प्रायः 3,000 रूप्यकाणि निर्धारितम्। एते नूतनाः नियमाः अद्यारभ्य प्रभाविनः सन्ति। उल्लेखनीयं यत् गार्हस्थ एलपीजी कोषाणां मूल्ये किमपि परिवर्तनं न कृतम्। सर्वकारेण स्पष्टीकृतं यत् उद्योगेषु उपयुज्यमानानां वाणिज्य कोषाणां मूल्यं विपणन आधारितं भवति, यस्य समीक्षा प्रतिमासं क्रियते। लोकसभायाम् अद्य प्रश्नकालसमये पूरक प्रश्नानाम् उत्तरं प्रयच्छन् रेलमन्त्री अश्विनी वैष्णव न्यगादीत् यत् रेल विभागाय अस्मिन् वर्षे अंकीय आयम् आवंटितम्। अनेन देशस्य प्रत्येकः नागरिकः, विशेषतः निर्धनाः, मध्यमवर्गीय जनाः च लाभान्विताः भविष्यन्ति। मन्त्रिणा स्पष्टीकृतं यत् विगत दशके रेलक्षेत्रे कृतेन वृहत् निवेशेन देशस्य रेलजालस्य आधुनिकीकरणं जातं, यस्य प्रत्यक्षलाभः सामान्यजनानां यात्रासुविधासु दृश्यते।
अभी जो कल फाइनेंशियल ईयर कंप्लीट हुआ उसमें रेलवे ने रिकॉर्ड 76,352 स्पेशल ट्रेन चलाई है और अब डेली 25,000 गाड़ियां रेलवे के नेटवर्क पे चलने लगी है और रिकॉर्ड 1,670 मिलियन मेट्रिक टन का कार्गो भी रेलवे ने इस साल अचीव किया है।
राज्यसभया अद्य केन्द्रीय सशस्त्र आरक्षक बल विधेयकं ध्वनिमतेन पारितम्। गृहराज्यमन्त्री नित्यानन्दरायः गतसप्ताहे एतद् विधेयकं प्रस्तुतवान्, यस्य मुख्योद्देश्यं ग्रुप ए सामान्य कर्तव्य अधिकारिणां नियुक्ति सेवा अनुशंसानां च नियमनं करणीयमस्ति। अस्मिन् वर्षे मार्च मासे वस्तु सेवा करस्य आहत्य संग्रहः गतवर्षस्य तुलनायाम् 8.8% वर्धित्वा 2,00,000 कोटि रूप्यकाणां स्तरम् अधिगतम्। गतवर्षे मार्च मासे एषः संग्रहः 1.83 लक्षकोटि रूप्यकाणि आसीत्। अपरपक्षे कृत्स्ने वित्तीय वर्षे आहत्य राजस्वं 22,00,000 कोटि रूप्यकाणि प्राप्तं, यत् गतवर्षस्य तुलनायाम् 8.3% अधिकमस्ति। एषा वृद्धिः भारतीय अर्थव्यवस्थायाः सुदृढतां, कर अनुपालनस्य विकासं च दर्शयति। भारत ऋतु विभागेन आईएमडी इत्यनेन श्वः पर्यन्तं छत्तीसगढ़, महाराष्ट्र, तेलंगाना प्रदेशेषु ओलावृष्ट्या सह मेघवृष्टेः पूर्वानुमानं कृतमस्ति। अद्य मेघालय असम राज्ययोः, श्वः यावत् अरुणाचल प्रदेशे च प्रचण्ड वृष्टेः विभागेन पूर्वानुमानं प्रकटितमस्ति। ऋतुविभागेन असम, मेघालय, ओडिशा, तेलंगाना इत्येतेषु राज्येषु दिने मेघगर्जनस्य, विद्युद्योतनस्य च पूर्वानुमानं कृतम्। शुक्रवासरं यावत् वायव्य भारते अधिकतमं तापमानं क्रमेण 2-4 डिग्री सेल्सियस यावत् वर्धिष्यति इति विभागेन उक्तम्। अद्य लखनऊ नगरस्य भारत रत्न श्री अटल बिहारी वाजपेयी एकाना क्रिकेट क्रीडांगणे पंचमे द्वन्द्वे लखनऊ सुपर जायंट्स दलेन दिल्ली कैपिटल्स दलं सम्मुखीक्रियते। इयं क्रीडा स्पर्धा सायं 7:30 आरप्स्यते। एशियन बॉक्सिंग चैंपियनशिप क्रीडायां भारतस्य सचिन सीवाचः, विश्वनाथ सुरेशः च अद्य मंगोलिया देशस्य उलान बाटरा नगरे प्रागुपान्त्य चक्रीय क्रीडायां प्रविष्टवन्तौ इति